सर्वेभ्यो नमस्कारः, सर्वेषां स्वागतम्. गतवर्गे वयम् आत्मनेपदिनः परस्मैपदिनः लोट्लकाररूपाणि वयम् अभ्यासं कृतवन्तः. अस्तु, तस्मिन् विषये एकवारं वदामः किञ्चित् अभ्यासं किं कृतवन्तः इति एकवारं दृष्ट्वा शीघ्रमेव अभ्यासं कुर्मः. अद्य अभ्यासं षट् पञ्चाशत् पुटसङ्ख्या षट् पञ्चाशत् तत्र अभ्यासं कुर्मः वयम्. अस्तु, अत्र पृच्छामि माधवी भगिनी.
आं भगिनि,
भवती वदति वा एदिति धातुः? अस्तु, अथवा सः इति धातुः, सहते सहेते इति अस्ति किल?
आम् आं भगिनि.
तस्मिन् विषये इदानीम् अद्य लोट्लकाररूपाणि एव वयं पश्यामः. अस्तु,
आं भगिनि.
अस्तु, तत्र तस्मिन् विषये भवती आत्मने, क्षम्यताम्, आत्मनेपदिनः लट्लकाररूपं लोट्लकाररूपं द्वयमपि वयं पश्यामः. अस्तु, सहते इति नवरूपाणि, सह इति धातोः लट्लकाररूपाणि वदति वा एकवारम्?
आं भगिनि, सहते, सहेते, सहन्ते,
सत्यं,
सहसे, सहेथे, सहद्वे, सहे, सहावके, सहामहे.
सत्यम्. अत्र एतत् सर्वं लोट्लकाररूपाणि वा लट्लकाररूपाणि वा?
लट्लकाररूपाणि भगिनि.
सम्यक्, बहु समीचीनम्. इदानीं लोट्लकाररूपाणि वदति वा?
आं भगिनि, सहतां, सहेतां, सहन्ताम्, सहसे, सहस्व, सहेथां, सहध्वं, सहै, सहावहै, सहामहै.
सम्यक् सम्यक्. अत्र सहे, सहै, सहावहे, सहावहै इति अस्ति चेत् कथं भवती जानाति किं लट्लकाररूपाणि, किं लोट्लकाररूपम् इति कथं जानाति भवती?
ऐ ऐ अन्ते अस्ति चेत् लोट्लकाररूपाणि, ए ए अस्ति चेत् लट्लकाररूपाणि.
बहु समीचीनं, बहु समीचीनम्. अस्तु, धन्यवादः भगिनि.
धन्यवादः भगिनि.
राधिका भगिनी.
आं भगिनि,
भवती रम् इति धातुः, रमते, रमेते इति लट्लकाररूपाणि वदतु.
आं भगिनि, रमते, रमेते, रमन्ते, रमसे, रमेथे, रमध्वं,
रमद्वे, रमद्वे,
रमद्वे, सारि रमद्वे, रमाणि,
रमे, रमे,
रमे, रमावहे, रमामहे.
सत्यं सत्यं. चिन्ता मास्तु, चिन्ता मास्तु. एकं विषयम् अहं वयं स्मरामः, यदा लट्लकाररूप आत्मनेपदिनः लट्लकाररूपाणि वयं वदामः चेत् सर्वत्र एकारः आगच्छति. पदस्य अन्ते सर्वत्र, सर्वत्र एकारः आगच्छति. कुत्र? रमते, रमेते, रमन्ते, रमसे, रमेथे, रमध्वे, रमे, रमावहे, रमामहे. सर्वत्र एकारः आगच्छति. उदाहरणार्थं यदा वयं वदामः रमते, रमेते, रमन्ते, रमस्व इति आगच्छति चेत् दोषः अस्ति. कुत्र एकारः अत्र नास्ति, अतः दोषः अस्ति इति वयं स्मरामः. अस्तु, लट्लकाररूपे अन्ते एकारः न आगच्छति चेत् दोषः अस्ति इति वयं स्मरामः. अस्तु, एकवारं पुनः वदति वा भवती? रमते,
रमसे,
नवरूपाणि वदतु, नवरूपाणि वदतु. रमते,
रमते, रमेते, रमन्ते, रमसे, रमेथे, रमद्वे, रमे, रमावहे, रमामहे.
सत्यम्. इदानीं लोट्लकाररूपाणि वदतु.
रमतां रमतां रमेथां रमन्तां रमस्व रमेथां रमध्वं रमै रमावहै रमामहै.
सत्यं सत्यं बहु समीचीनम्. अस्तु इदानीं धन्यवादः, बहु समीचीनं भगिनि. अस्तु इदानीम् अभ्यासम् आरम्भं कुर्मः. अस्तु गीतासोपानं पुस्तके षट्पञ्चाशत्तमपुटे पेज् नम्बर् 56 षट्पञ्चाशत्तमपुटे अभ्यासम् आरम्भं कुर्मः. अस्तु अग्रे वीणाबेन् भगिनी पश्यति वा, पुस्तकमस्ति वा भवत्याः?
आम् आं भगिनि, अस्ति.
दशम अभ्यासः.
असमानार्थकपदं पृथक् कुरुत. सहस्व तितिक्षस्व क्षमस्व.
सहस्व तितिक्षस्व क्षमस्व. अत्र अत्र रूपाणि रूपत्रयम् अस्ति अत्र. किं पदं भवति पृथक् करोति अत्र?
त्रीणि रूपाणि प्रार्थनादिषु. सम्यक् प्रार्थनादिषु.
सत्यं सत्यं, लोट्लकारूपाणि एव सर्वं. सहस्व तितिक्षस्व क्षमस्व सर्वं लोट्लकारूपाणि एव. परन्तु किं पृथक् करोति? पृथक् नाम आड् वन् औट्, पुल् दि आड् वन् औट् इति अर्थः. असमानार्थकपदम् असमानार्थकपदं पृथक् कुरुत. अत्र पश्यामः चेत् सहस्व इति पदमस्ति किल, तस्य अर्थः कः इति?
भगिनि त्रीणि त्रीणि आत्मनेपदी आत्मनेपदी.
आं सत्यं, सर्वम् आत्मनेपदिनः एव. आम् सहते
असमानार्थम् असमानार्थकपदं किमर्थम्?
अर्थभेदः अस्ति, अर्थभेदः अस्ति. सहते इति अस्ति चेत् टु बेर् इति अर्थः, टु टालरेट् इति अर्थः. तितिक्षस्व इति तितिक्षस्व इति तितिक्षते इति पदस्य अर्थः किम् इत्युक्ते टु एण्ड्योर्, टु बेर् इति अर्थः, तदेव अर्थः. क्षमस्व इति क्षमते इति पदस्य अर्थः किम् इत्युक्ते टु फर्गिव्, क्षमापणं कुर्मः किल, टु फर्गिव्, तदेव अर्थः. अत्र अर्थभेदः सर्वं समानमस्ति वा?
समानं नास्ति.
किं कथं समानं नास्ति अत्र? अर्थभिन्नः कुत्र अस्ति? सहस्व क्षमस्व. आम् अत्र अर्थभेदः अस्ति, अतः क्षमस्व इति लिखितमस्ति अत्र.
आम् आं भगिनि,
किल रक्तवर्णे लिखितमस्ति अत्र.
आम् आम् द्वितीय.
एकनिमिषः एकनिमिषः भगिनि. सहस्व तितिक्षस्व क्षमस्व, अत्र एकैकं पदं पश्यामः. क्षमस्व आत्मनि पदिनः पुरुषः कः?
मध्यमपुरुषः.
सत्यम्. अनन्तरं तितिक्षस्व
मध्यमपुरुषः.
आत्मनेपदिनः मध्यमपुरुषः, एकवचनं.
आम्
अनन्तरं
सहस्व सहस्व अपि
क्षमस्व
क्षमस्व अपि आत्मनेपदी मध्यमपुरुष एकवचनं.
सत्यं सत्यं, तादृशं वदतु. अग्रे अपि तादृशं वदतु. अनन्तरम् अग्रे
वदतु ब्रूतां भाषतां मोदताम्.
आम् इदानीं भवती व्याकरणरीत्या वदतु एकवारं, परस्मैपदिनः वा आत्मनेपदिनः, प्रथमपुरुषः वा उत्तम मध्यमपुरुषः वा उत्तमपुरुषः वा इति वदतु. अनन्तरम् अर्थभेदः पश्यामः. अस्तु
वदतु भगिनी, उभयपदी वा परस्मैपदी? अहं कन्फ्यूस्.
परस्मैपदिनः.
परस्मैपदी, ओके. वदतु परस्मैपदी.
भवती कथं जानाति अत्र परस्मैपदी इति? वदतु, अन्ते तु इति अस्ति किल.
आम् आम्.
तु इति अस्ति परस्मैपदी इति वदतु.
परस्मैपदी प्रार्थनादिषु वर्तमानकाल
सत्यं वर्तमानकालः
न वर्तमानकालः
किल भगिनी लोट्लकाररूपाणि किल.
आम् आम्
भवती वदतु परस्मैपदिनवः आत्मनेपदिनः वा.
परस्मैपदी.
पुरुषः कः?
प्रथमपुरुषे एकवचन.
सत्यम्. अनन्तरं भृतां.
भृतां अहं विस्मृतवती भगिनी. भृतां.
अन्य कोऽपि मधु भगिनी साहाय्यं करोति वा? भृतां कुत्र भवति?
आत्मनिपदिनः लोट्लकार द्वितीयवचन भगिनि. प्रथमपुरुष द्वितीयवचन.
एकवचनम् किल?
एकवचनं पुरुष लोट्लकार.
अत्र एकं वदामि, सर्वत्र लोट्लकाररूपाणि एव. अस्तु, अतः लोट्लकारम् इति न वक्तव्यम् आवश्यकं नास्ति. प्रार्थना अस्ति, प्रार्थनारूपम् अस्ति इति अपि वक्तव्यम् आवश्यकं नास्ति. आवश्यकं नास्ति. अतः केवलं
किं भगिनि परस्मैपदिनः वदतु.
परस्मैपदिनः
वदतु.
किमर्थं, कथं भवती कथं जानाति परस्मैपदिनः आत्मनेपदिनः वा इति?
पठतु लोट्लकाररूप.
सत्यं. परन्तु भवती कथं जानाति एकं पदम् अस्ति? अस्तु, एकं पदम् अस्ति दृष्ट्वा अथवा श्रुत्वा भवती कथं जानाति परस्मैपदिनवः आत्मनेपदिनवः इति? कथं भवती जानाति?
अन्ते ए आम् अस्ति चेत् आत्मनेपदिनः भवति भगिनि.
आम्, तद् आत्मनेपदिन. सत्यं सत्यं. परन्तु यदा पदस्य अन्ते तु इति अस्ति चेत् तत् परस्मैपदिनः एव भवितुम् अर्हति किल? पठतु, वदतु, क्रीडतु, रमते, भाषते, ब्रूते, ब्रूताम् इति पदस्य अन्ते ते अथवा ताम् तादृशम् अस्ति चेत् आत्मनेपदिनः इति
टिप्पणी.
अस्तु, अत्र वदतु इति अस्ति, तु इति अस्ति चेत् परस्मैपदिनः एव भवितुम् अर्हति.
अन्ते ई उकार अस्ति चेत् परस्मैपदिनः भवति.
सत्यं सत्यं सत्यं, तदेव. ब्रूतां किं भवितुम् अर्हति?
आत्मनेपदिनः लोट्लकाररूपम्.
लोट्लकारम् इति न वक्तव्यं, न न आवश्यकं नास्ति. किमर्थम् इत्युक्ते सर्वं लोट्लकारमेव. आत्मनेपदिनः वा परस्मैपदिनः वा? अनन्तरं पुरुषः कः?
प्रथमपुरुषः.
सत्यम्. अनन्तरं भाषतां?
प्रथमपुरुषः लोट्लकार आत्मनेपदिनः.
असत्यं. धन्यवादः भगिनि.
धन्यवादः.
आम्, अवीनाबेन भगिनी भवती वदति वा?
प्रथमपुरुष द्विवचन भगिनी. प्रथमपुरुष
द्विवचन. द्विवचनं न, अत्र एकवचनमेव लिखितमस्ति. प्रथमपुरुष एकवचनं. भाषताम्. आत्मनेपदिनः प्रथमपुरुषः एकवचनं.
बराबर.
अवगच्छति वा?
आं भगिनि. जस्ट् लैक् वन्दताम्.
सत्यं सत्यं, तदेव. रमतां, भाषतां, वन्दताम्. द्विवचनमस्ति चेत् कथं भवति भगिनि? भवती वदतु.
द्विवचनम् अस्ति चेत् वन्देताम्.
आम्, एकारः भविष्यति, मध्ये एकारः आगच्छति. अस्तु, इदानीं भाषताम् आत्मनेपदिनः वा परस्मैपदिनः वा?
आत्मनेपदी.
पुरुषः कः?
भाषेतां
प्रथमपुरुषतां
भाषतां प्रथमपुरुष एकवचनम्।
अनन्तरं मोदतां
मोदतां प्रथमपुरुष मोदताम् आत्मनेपदी भगिनि।
पुरुषः कः?
प्रथमपुरुष।
सत्यं सत्यम्। इदानीं भवती दृष्ट्वा वदतु के के अत्र पदानि सन्ति किल अत्र
वदतु
वदतु ब्रूतां भाषतां मोदताम् अस्ति अत्र अर्थभेदः कुत्र अस्ति?
वदतु
अस्तु वदतु इत्युक्ते किं
वदतु परस्मैपदी
न इत्युक्ते किं मम प्रश्नः कः
प्रार्थना
न एकनिमिषः वीणाबेन भगिनि सावधानेन शृणोतु अहं किं पृच्छामि अहं मम प्रश्नः कः इति श्रुत्वा वदतु सम्यक्तया शृणोतु सावधानेन शृणोतु अत्र भ्रमः भीतिः आवश्यकं नास्ति अस्तु अत्र वदतु इति पदमस्ति अर्थः कः
इङ्ग्लिश् इङ्ग्लिश् मे
अस्तु वदतु
इङ्ग्लिश् मे नहि बोल् सक्ति मे
अस्तु हिन्दी मे कथं वदति भवती
वदतु बोलो
अस्तु बोलो एव किल अनन्तरं ब्रूताम् इति पदस्य अर्थः कः
न जानामि भगिनि
आम् आन्सर् बोलो इति अर्थः एव समान अर्थः एव वदतु ब्रूतां पर्यायपदानि एव अस्तु अनन्तरं भाषतां
समान एव अर्थः
आम् आम् भाषताम् इति इत्युक्ते बोलो इति एव अर्थः आङ्ग्लभाषायां टाक् इति वदामः किल टाक् भाषताम् इत्युक्ते टाक् बोलो इति एव अर्थः अस्तु अत्र वदतु ब्रूतां भाषताम् अर्थः समानमेव भवति अस्तु पर्यायपदानि एव अत्र मोदताम् इति अस्ति किल पदम् अस्ति किल तस्य अर्थः कः
अर्थः भिन्नः भगिनि
आम् अर्थः कः मोदताम् इत्युक्ते टु लैक्
इच्छति
तादृश अर्थः तादृश अर्थः भवति मोदताम् इति अस्ति चेत्
आम् आम्
अस्तु अत्र अर्थभेदः कुत्र अस्ति
मोदताम्
इति आम् अतः अत्र असमानार्थकशब्दः कः इत्युक्ते मोदताम् इति एव असमानार्थकशब्दः अस्तु अवगच्छति वा
आं भगिनि अवगच्छामि
अस्तु अस्तु अग्रे कुर्मः भवती सावधानेन शृणोतु यद् भवती न अवगच्छति तद् पृच्छतु अस्तु इदानीम् अवगच्छति वा
आं भगिनि मोदताम् अर्थ भिन्न
आम् 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 सत्यं बहु समीचीनं धन्यवादः भगिनि
धन्यवादः
उर्मिला भगिनि
आं भगिनि
तादृशं भवती करोतु किं करणीयम् आत्मनेपदिनः परस्मैपदिनवः इति एकवारं वदतु अनन्तरं पुरुषः कः इति वदतु अस्तु
अस्तु पुंक्ष्व परस्मैपदी आत्मनेपदी आत्मनेपदी मध्यम पुरुष एकवचन
सत्यम्
वचनं भजस्व आत्मनेपदी मध्यम पुरुष एकवचन लोट लकार खाद परस्मैपदी मध्यम पुरुष एकवचन एकवचन भक्षय भक्षय परस्मैपदी प्रथम पुरुष एकवचन लोट लकार अत्र भुक्ष्व अर्थं to eat.
Satyam, satyam.
Bhajasva artham means to pray.
Bhajasva,
bhajati.
Bhagini, ekanimishah. Atra dosha hasti. Bhakshaya iti sthane dosha hasti. Atmane padina hava, parasme padina hava.
Bhakshaya. Bhakshaya. अहं न जानामि भगिनि भक्षय परस्मैपदी अस्ति वा
सत्यं सत्यम्
आम् परस्मैपदी प्रथम मध्यमपुरुष एकवचन एकवचनं
सत्यं परस्मैपदिनः मध्यमपुरुषः अस्ति अस्तु
अस्तु
आम् इदानीं वदतु बुङ्क्ष बुङ्क्ष्व इति अर्थः पदस्य अर्थः कः
बुङ्क्ष्व अर्थं टु ईट्
सत्यम् अनन्तरं भजस्व
भजस्व मीन्स् टु भजन् कर्ण प्रे कर्
सत्यं खाद
खाद मीन्स् टु ईट्
भक्षय
भक्षय अर्थं समानं खाना खाओ
सत्यं सत्यम् अतः अत्र कुत्र अस्ति
भजस्व असमानम् अर्थम्
आम् असमानः कुत्र अस्ति भजस्व एव सत्यं सत्यं बहु समीचीनं वीणाबेन भगिनी भवती अवगच्छति वा
आं भगिनि
अस्तु समीचीनम् अग्रे ऊर्मिला भगिनी अग्रे करोतु
अग्रे भज लभस्व आत्मनेपदी अस्ति प्रथम मध्यम पुरुषे एकवचनं लब्धातु आप्नुहि आप्नुहि अर्थं प्राप्त करोतु आप्नुहि आप्नुहि
अत्र एक अत्र सहायं करोमि अत्र किञ्चित् भेदः अस्ति परस्मै आप्नोति इति अस्ति किल आप्नोति
आम्
आप्नोति प्राप्नोति इति अस्ति किल तादृशम् अत्र अस्ति एतत् विधिलिङ्ग् अस्ति लोट्लकारः नास्ति विधिलिङ्ग् अस्ति अतः वयं न जानीमः अस्तु
अस्तु अस्तु
अनन्तरं विद् विन्द्
परस्मैपदी अस्ति रैट् विधिलिङ्ग् परस्मैपदी
सत्यं भगिनि
अस्तु विन्द आत्मनेपदी मध्यम पुरुष एकवचनम् निन्द
एकनिमिषः परस्मैपदिनः विन्द् इति परस्मैपदिनः अस्ति
विन्दति ओ वन्दति ओके विन्द् परस्मैपदी अस्ति क्षम्यतां
सत्यं सत्यं
निन्द अपि परस्मैपदी मध्यमपुरुष एकवचनं
सत्यं सत्यम् अस्तु अत्र अर्थभेदः पश्यामः कुत्र अर्थभेदः अस्ति इति असमानार्थकशब्दः कः इति पश्यामः
लभस्व अर्थं
लभते तादृशार्थः
आप्नोति अर्थं टु गेट् समथिङ्ग् विन्द मीन्स् टु अर्थम् अहं निन्द मीन्स् किसी की निन्दा करना
सत्यं 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 टु ब्लेम् इति अर्थः आङ्ग्लभाषायाम् अर्थ असमानार्थक शब्दः कः
असमानार्थ शब्दः निन्द
आम् सत्यं निन्देव असमानार्थक शब्दः अस्तु अवगच्छति वा
आम् आम्
समीचीनं धन्यवादः भगिनि अनन्तरं मधु भगिनि
आं भगिनि जानीहि विद्धि निबोध जहि जानीहि दिस् इस् आल्सो विधिलिङ्ग् भगिनि
आं सत्यं भगिनि तादृशं भवितुं कुत्र जानीहि वा
आं भगिनि
मध्यमपुरुषः अस्ति मध्यमपुरुष परस्मैपदिनः मध्यमपुरुषः
विद्धि दट् इस् आल्सो सेम् भगिनि
विद्धि एकनिमिषः पश्यामि निबोध क्षम्यतां विद्धि विद्धि कथं भवति चेत् लोट्लकार उपग परस्मैपदिनः एव भगिनि विद्धि परस्मैपदी मध्यमपुरुषः मध्यमपुरुषः अस्ति
भगिनि
सत्यं सत्यम् आम् मध्यमपुरुषः एव आम् आं सत्यम्
आं मध्यमपुरुष
सत्यम् आम् आं जानीहि जहि
आं भगिनि then jani he also to know bagini jahi is also to know nibodha is word bagini
that is also nibodha to know
to understand or something and vidhi is different no bagini like how
vidhi is to understand
okay
he is like janatu
aam bagini
janatu hasti janatu tadashartah निबोध बोधयतु इति अर्थः तादृशं भवति विद्धिः अस्ति चेत् तदेव टु अण्डर्स्टाण्ड् इति एव अर्थः जहि अस्ति चेत् हन्ति इति अर्थः भवति जहि इति अस्ति चेत् हन्ति इति एव अर्थः भवति हन्ति नाम हन् इति धातुः टु किल् इति अर्थः अतः असमानार्थकशब्दः कः इत्युक्ते
जहि
आं सत्यं तदेव आम् परस्मैपदि मध्यमपुरुषः जहि अग्रे
इच्छानि चा भगिनि
चा एव भगिनि प्रथम चा वर्गे प्रथम प्रथमवर्णः अस्ति किल तदेव इच्छानि
काङ्क्षानि वीक्षय
आं सत्यं कुत्र भवति इच्छानि पठानि गच्छानि क्रीडानि वा पठानि वा इच्छानि वा भवानि भवती पठतु पठतु इति भवति किल शब्दस्य नवरूपान् लोट्लकारूपाणि वदति वा एकवारं पठतु
पठतां पठन्तु पठतं पठत पठै पठावहे पठामहे
पठानि पठाव पठाम चिन्ता मास्तु पुनः वदतु पुनः एकवारं वदतु
पठानि भगिनि उत्तमपुरुष ऐ कुड् नाट् गेट् भगिनि पठामि
पठानि पठाव पठाम
पठाव पठाम
सत्यं नवरूपाणि कथं भवति चेत् पठतु
उत्तमपुरुष लोट्लकार परस्मैपदिनः
सत्यं सत्यमे सत्यं पुनः पठतु शब्दस्य नवरूपाणि वदतु
भगिनि पठतु पठतां पठन्तु पठ पठतं पठत पठानि पठा पठाव पठामः
अत्र विसर्गः न भवति
पठाम
सत्यं
पठाव पठाम
पठाम तावदेव तावदेव अस्तु अस्तु अत्र पश्यतु इच्छानि इति अस्ति
आं भगिनि इच्छानि उत्तमपुरुष लोट्लकार परस्मैपदिनः
सत्यं
एकवचनं काङ्क्षानि इट् इस् आल्सो सेम् भगिनि
सत्यं
कामयै दिस् इस्
पदस्य अन्ते ऐकारः आगच्छति चेत् कुत्र भवति
आत्मनि पदिनः उत्तमपुरुष लोट् लकार
सत्यं सत्यं बहु समीचीनम् अनन्तरं वीक्षै
दट् इस् आल्सो आत्मनि पदिनः उत्तमपुरुष लोट् लकार
सत्यम् अत्र अर्थभेदः कुत्र अस्ति समानार्थकः
टु लैक्
सत्यं काङ्क्षते काङ्क्षते इत्युक्ते पश्यति इति अर्थः
आं भगिनि वीक्षैर् असमानार्थकः
शब्दः अस्ति आं सत्यं सत्यम् अनन्तरं
वन्दता
धन्यवादः अग्रे सुधा भगिनी
नमस्कारः
भगिनी
किञ्चित् विलम्बः जातः
चिन्ता मास्तु चिन्ता मास्तु भगिनि
वन्दताम् इति आत्मनेपदि प्रथमपुरुष एकवचनरूपं
सत्यं
वन्दतां नमतु प्रणमतु सर्वे टु बौ अथवा टु सल्यूट् इति अर्थे भवति रमताम् एव असमानार्थः
शब्दः सत्यं
नमतु इति परस्मैपदी प्रथमपुरुष एकवचनरूपं
सत्यं
रमताम् इत्यपि आत्मनेपदी एकवचन प्रथमपुरुष एकवचनरूपं प्रणमतु इति परस्मैपदी प्रथमपुरुष एकवचनरूपं
सत्यम् अत्र समानार्थकशब्दः के शब्दाः के
वन्दतां नमतु प्रणमतु सर्वे समानार्थकशब्दाः
सत्यं सर्वं नमति इति एव अर्थः भवति
इत्येव
अत्र रमताम् इति असमानार्थकशब्दः समीचीनम् अग्रे
क्रीडा इति परस्मैपदी मध्यमपुरुषे एकवचनं लस सर्वे मध्यमपुरुषे एकवचनमेव क्रीड लस रमस्व त्रीणि
त्रयदानि
शब्दाः
पदानि
त्रीणि पदानि समानार्थकाः सहस्व इति भिन्न अर्थः अस्ति
अर्थः कः
सहस्व इत्युक्ते टालरेट् इति अर्थः
आम् सत्यं सत्यं क्रीडा लस रमस्व
एते शब्दाः टु प्ले टु रिजाय्
एन्जाय्
टु एन्जाय् इति अर्थः भवति
सत्यं समीचीनं बहु समीचीनं धन्यवादः भगिनि
धन्यवादः भगिनि
माधुरी भगिनि
आं भगिनि वीक्षै लोकै पश्यानि रक्षानि अवेक्षै वीक्षै आत्मनेपदि उत्तमपुरुषः एकवचनं लोकै आत्मनेपदि उत्तमपुरुषः एकवचनं पश्यानि परस्मैपदि उत्तमपुरुषः एकवचनं रक्षाणि परस्मैपदि उत्तमपुरुषः एकवचनं अवेक्षै आत्मनेपदि उत्तमपुरुषः एकवचनं
बहु समीचीनं
अत्र वीक्षै लोकै पश्यानि अहं चिन्तयामि अवेक्षै अपि
अवेक्षै इत्युक्ते अवयोगः ईक्षते इति अस्ति किल ईक्षते इति लुक् लुक् इति एव अर्थः पश्यति इत्येव अर्थः अत्र उपसर्गः अस्ति अवयोगः ईक्षते अवेक्ष्यै इति अस्ति अवेक्षते इति अर्थः
वीक्षै लोकै पश्यानि अवेक्षै सर्वे टु लुक् टु सी इति अर्थः असमानार्थः अत्र रक्षाणि
सत्यं भगिनि अत्र पश्यतु वीक्षय इति अपि अस्ति धातुः अस्ति अत्र अवेक्षये इति अपि अस्ति अत्र पश्यामः चेत् अत्र उपसर्गः योजयित्वा अस्ति अत्र उपसर्गः विना अस्ति वीक्षै अवेक्ष्यै अवगच्छति वा अहं किं वक्तुम् इच्छामि
आं भगिनि
अत्र उपसर्गः योजयामः चेत् अपि अर्थः भिन्नः न भविष्यति, अत्र समानार्थकः एव. अग्रे अग्रे वदतु.
मुञ्चतु, जहातु, हन्तु, त्यजतु. मुञ्चतु प्रथमपुरुषः
सर्वं प्रथमैव प्रथम परस्मैव आत्मनेपदिनः वा सर्वं
सर्वं परस्मैपदी प्रथमपुरुषः एकवचनम् एव.
सत्यं, बहु समीचीनम्. आम्, सुलभः एव अस्ति.
मुञ्चतु अहं न जानामि.
टु चीट्, टु चीट् इति अर्थः तादृशं भवति.
जहातु इत्युक्ते किल्, हन्तु
टु अबाण्डन्, टु नेग्लेक्ट् इति अर्थः.
त्यजतु इति टु गिव् अप्, रैट् भगिनि?
टु नेग्लेक्ट् अथवा टु गिव् अप् इति अथवा अर्थः. अनन्तरं हन्तु इति अस्ति चेत्
हन्तु, हन्तु इस् टु किल्,
किल् अस्तु. अत्र
त्यजतु
टु नेग्लेक्ट् इत्येव अर्थः. अतः अत्र असमानार्थकशब्दः कः?
मुञ्चतु, त्यजतु वा भगिनि?
न भगिनि, अत्र पश्यतु, मुञ्चतु इति अस्ति चेत् टु चीट् इति अर्थः.
अस्तु भगिनि.
जहातु इति अस्ति चेत् टु अबाण्डन्, टु नेग्लेक्ट् इति अर्थः.
ओके.
त्यजतु इति अस्ति चेत् टु नेग्लेक्ट् इति एव अर्थः.
ओके भगिनि.
हन्तु इति अस्ति चेत् टु किल् इति अर्थः, मारणम्. अस्तु, हन्तु टु किल् इति अर्थः. अत्र पर्याय सर्वं मुञ्चतु, जहातु, त्यजतु सर्वं पर्यायपदानि सन्ति.
हन्तु
टु किल् इति असमानार्थकशब्दः अस्ति.
अस्तु भगिनि.
स्पष्टं वा?
आम् आं भगिनि.
कश्चन समये वयम् अर्थः न जानीमः, तद् चिन्ता मास्तु. बहु समीचीनं, दशम समीचीनं, बहु दशम अभ्यासः सम्यक् जातः. इदानीम् अग्रे पश्यामः. राधिका भगिनी, एकादश अभ्यासः पश्यामः वा?
आं भगिनि. कोष्टकस्थानां वर्तमानकालक्रियापदरूपाणां लोट् रूपाणि उपयुज्य वाक्यानि वदत.
अत्र किं लिखति? कालः कः? अत्र कालः कः लिखितमस्ति? पठति, शिक्षते, वदति, ब्रूते, करोति, कुरुते, सर्वं
वर्तमानकालः.
सर्वं वर्तमानकालः लिखितमस्ति. अत्र अभ्यासः कः? लोट् लकाररूपाणि उपयुज्य वदतु इति एव अभ्यासः अस्ति अत्र. अस्तु,
ओके ओके.
इदानीं किं करणीयम् इत्युक्ते वदतु, वदतु.
सः पठतु, तौ तौ पठतां, ते पठन्तु.
समीचीनम्. अनन्तरं
शिक्षते, शिक्षेते, शिक्षन्ते. सः तौ ते सारि शिक्षते, सः शिक्षते, तौ शिक्षत, शिक्षतां, ते शिक्षन्ताम्.
एकनिमिषः भगिनी, अत्र अभ्यासः अस्ति लोट् लकाररूपाणि उपयुज्य वाक्यानि रचयतु इति. अस्तु अस्तु. अतः शिक्षते इति अस्ति चेत् शिक्षतु, अतः आत्मनेपदिनः अस्ति. अस्तु, आत्मनेपदिनः लोट् लकार, भवती अभ्यासं करोति चेत् करोतु. शिक्षते इति उक्त्वा अनन्तरं लोट् लकाररूपाणि वदतु. प्रथमं लट् लकाररूपम् उक्त्वा अनन्तरं लोट् लकाररूपं वदतु. शिक्षते,
शिक्षते, शिक्षेते, शिक्षन्ते, लट् लकाररूपमस्ति. शिक्षतां, शिक्षेतां, शिक्षन्ताम्.
सत्यं, बहु समीचीनं, तावदेव.
लोट् लकाररूपमस्ति. वदति, वदति परस्मैपदी अस्ति. वदति,
न न, अत्र लोट्लकाररूपमेव वदतु, लोट्लकाररूपमेव वदतु. वदतु,
वदतु, वदतां, वदन्तु, ब्रूते आत्मनेपदी अस्ति ब्रूते ब्रूतां ब्रूवेतां ब्रुवन्ता
तावदेव तावदेव सम्यक् भगिनि बहु सम्यक् धन्यवादः भगिनि धन्यवादः अग्रे वीणाबेन् भगिनि
आं भगिनि
मध्यमपुरुषः वदति वा त्वं युवां यूयं
त्वं त्वं कुरु
सत्यं
युवां कुरुतां यूयं
कुरुतं कुरुतं
कुरुतं
कुरुतं
कुरु कुरुतं कुरुत
कुरुत सत्यं सत्यं यूयं कुरुत त्वं कुरु युवां कुरुतं यूयं कुरुत
कुरुत त्वं चिन्तय त्वं चिन्तय युवां
करोति मेडम्
आम् एकनिमिषः भगिनी अत्र उभयपदिनः अस्ति करोति अपि एकं पदम् अस्ति कुरुते इति अपि एकं पदम् अस्ति भवती कुरुते इति शब्दस्य रूपाणि उक्तवती भवती अस्तु इदानीं भवती करोति इति उपयुज्य अपि वदतु त्वं कुरुष्व क्षम्यतां त्वं कुरु अस्तु त्वं कुरु युवां कुरुतं यूयं कुरुत तत् परस्मैपदिनः अस्ति अनन्तरं कुरुते इति शब्दस्य मध्यमपुरुष वदतु आत्मनेपदिनः अस्ति भवती जानाति वा इति अहं न जानामि परन्तु एतद् किञ्चित् कष्टेन अस्ति कुरुष्व त्वं कुरुष्व
त्वं कुरुष्व युवां कुरुतां
कुर्वातां
कुर्वतां
कुर्वतां
कुर्वतां यूयं कुर्वत्वं
कुरुद्वं कुरुद्वं
कुरुद्वं
किमर्थम् एतद् विषयं कष्टम् अस्ति चेत् एतद् तनादिगणः तनादिगणः इत्युक्ते मध्ये ओकारः आगच्छति क्रियापदस्य मध्ये विकरणप्रत्ययः अस्ति किल तद् विकरणप्रत्ययः ओकारः अस्ति अस्तु अतः पदस्य निर्माणं किञ्चित् भिन्नः अस्ति यद्वयम् अभ्यासं कृतवन्तः तत् सर्वं भुवादिगणः विषये एव तदेव सुलभः भविष्यति अतः तस्मिन् विषये एव वयं तादृशक्रियापदानि एव वयम् अभ्यासं कृतवन्तः एतत् करोति कुरुते इति अस्ति चेत् तनादिगणः अस्ति अत्र विकरणप्रत्ययः ओ इति अस्ति अतः पदस्य निर्माणं किञ्चित् भिन्नः अस्ति अस्तु अग्रे करोतु चिन्तयति इति करोतु
त्वं चिन्तय युवां चिन्तयतं यूयं चिन्तयत
सत्यं बहु समीचीनम् अनन्तरं
मन्यते
मन्यते सत्यं वदतु
त्वं मन्यस्व
मन्यतां लोट्लकाररूपाणि लोट्लकाररूपाणि
मन्य मन्य किं भगिनि
वदतु भवती मध्यमपुरुषः एव किल वदतु वदतु
त्वं मन्यस्व
सत्यं सत्यं मन्यस्व
त्वं मन्यस्व युवां मन्य मन्यथां यूयं मन्यध्वं
सत्यं बहु समीचीनं बहु समीचीनं धन्यवादः
धन्यवादः
ऊर्मिला भगिनि
आं भगिनि अहं भजामि आवां भजावः वयं भजामः
सत्यम्
अत्र भजति
भजते भजते
भजते अहं भजे आवां भजावहे वयं भजामहे
सत्यम्
क्रीडति अहं क्रीडामि, आवां क्रीडावः, वयं क्रीडामः, रमते.
अत्र लोट्लकाररूपम् उपयुज्य वदतु, क्रीडतु इति अस्ति. अस्तु,
भजत. ओके, भजतातु लोट्लकार.
आम् सत्यं, तद्वदतु.
अहं भजामि.
सत्यम्.
आवां भजाव, वयं भजाम.
सत्यं, बहु समीचीनम्.
आत्मनेपदी अहं भजै, आवां भजावहै, वयं भजामहै.
सत्यम्.
अस्तु, रमते. अहं रमामि, आवां अहं क्रीडामि, आवां क्रीडावः, वयं क्रीडामः.
एकनिमिषः, अहं सहायं करोमि. किञ्चित् सम्यक्तया चिन्तनीयम् अस्ति. अत्र क्रीडतु इति चिन्तयित्वा वदतु, अत्र लोट्लकाररूपाणि वक्तव्यम्.
अस्तु, क्रीडतु. भवान्
उत्तमपुरुषः.
उत्तमपुरुषः. अहं क्रीडामि, आवां क्रीडाव, वयं क्रीडाम.
बहु समीचीनं, बहु समीचीनम्. अनन्तरं
रम धातु, आत्मनेपदी. अहं रमै, आवां रमावहै, वयं रमामहै.
बहु समीचीनम्. अवगच्छति वा?
आम् आम्.
रूपाणि किञ्चित् कठिनः भवितुम् अर्हति, अवगच्छामि. गच्छता कालेन अभ्यासेन एव सम्यक् भविष्यति, सुलभः भविष्यति. अस्तु, बहु समीचीनम्. उर्मिला भगिनी, धन्यवादः भगिनी. अनन्तरं मधु भगिनी अग्रे.
आं भगिनि, 12th भगिनि, 12th मे.
आम् आम्, द्वादश अभ्यासः.
पाण्डवानां शिबिरं युद्धसन्नाहः प्रवर्तते. सेनापतिः दुष्टद्युम्नः सूचनाः ददाति. आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः कं किम् आदिशति इति लिखत. सो हू इस् गिविङ्ग् आर्डर् टु हूम्? उदाहरणं, सूर्योदयः जातः, यूयं सर्वे उत्तिष्ठिता. युद्धार्थ
पश्यतु, सूर्योदयः जातः.
आं भगिनि,
यूयं सर्वे, कः वदति एतत् सर्वं? सेनापतिः दृष्टद्युम्नः सूचनाः ददाति. अस्तु, तदेव अत्र सर्वमस्ति. सेनापतिः दृष्टद्युम्नः सूचनाः ददाति, हि इस् गिविङ्ग् इन्स्ट्रक्षन्स् इति अर्थः. अस्तु, किं प्रथमं किं वदति सः? कः सूचना वदति? सूर्योदयः जातः, यूयं सर्वे उत्तिष्ठन्ति. अस्तु, उत्तिष्ठन्ति इति क्रियापदम् आवरणे अस्ति. अत्र किम् उचित पदं किम् अस्ति? सर्वे उत्तिष्ठत इति एव अस्ति उचितपदं. बहुवचने अस्ति उत्तिष्ठत. यूयं सर्वे उत्तिष्ठत इति सः उक्तवान्. अस्तु,
युद्धार्थं सज्जाः भवन् सुकेश.
एकनिमिष भगिनी, भवती एकैकश वाक्येशः वदतु. युद्धार्थं सज्जाः भवन्ति इति आवरणे अस्ति.
आं भगिनि,
तस्य उचितपदं किं भवति, भवितुमर्हति? भवन्ति इति शब्दस्य लोट्लकाररूपं किम्?
भवन्तु
उदाहरणार्थम् अहं वदामि अत्र पठति इति शब्दस्य लोट्लकाररूपं किं
पठतु
पठन्तु इति शब्दस्य लोट्लकाररूपं किं
भगिनि
पठन्तु इति शब्दस्य लोट्ल सारी क्षम्यतां पठन्ति इति शब्दस्य लोट्लकाररूपं
पठन्तु
अनन्तरं सहन् सहते इति शब्दस्य लोट्लकाररूपं
सहताम्
आम् सहन्ते इति शब्दस्य लोट्लकाररूपं
सहन्ताम्
आम् सहे इति शब्दस्य लोट्लकाररूपं
सहै
सहै समीचीनम् अनन्तरं सहामहे इति शब्दस्य लोट्लकाररूपं
सहामहै
तादृशमस्ति अत्र तादृश भवन्ति इति शब्दस्य लोट्लकाररूपं किं भवन्तु
भवन्तु
युद्धार्थं सज्जाः भवन्तु इति वाक्यम् अनन्तरं
त्वं द्वारे
सुकेश
त्वं द्वारे तिष्ठसि
मध्यमपुरुषे तिष्ठसि इति मध्यमपुरुषे अस्ति लोट्लकाररूपं
तिष्ठ
आम् खादसि खादसि इति शब्दस्य लोट्लकाररूपं
खाद
क्रीडसि इति शब्दस्य लोट्लकाररूपं
क्रीडा
मध्यमपुरुषः अत्र अस्ति अस्तु त्वं द्वारे तिष्ठ सुकेश सुकेश सम्बोधनं सुकेश त्वं द्वारे तिष्ठ इति अग्रे अग्रे
यूयं
डकारः खड्गान् खड्गान्
तीक्ष्णान् कुरुथ कुरुथ इस् मध्यमपुरुष बहुवचन भगिनि
सत्यं
दिस् इस् कुरुथ कुरुथ
महाप्राणः अस्ति अत्र महाप्राणः
अस्ति भवति भगिनि
सत्यं सत्यं तदेव सत्यं
भीमः अद्य भवान् राजसैन्य नयति नयतु
गजसैन्यम् अद्य भवान् गजसैन्यं
नयतु यूयं कवचानि धरत दिस् इस् अगेन्
अत्र धरत इति अस्ति चेत् तद् मध्यमपुरुष लट्लकाररूपं मध्यमपुरुषे बहुवचनम् अस्ति अल्पप्राणः लोट्लकाररूपं भवति चेत् अल्पप्राणतकारः आगच्छति
नकुल अद्य त्वं व्यूहं रचयसि रचय भगिनि
सत्यं रचय रचय करेक्ट् सत्यम्
सर्वे व्यूहे सज्जाः तिष्ठन्ति तिष्ठन्तु
सर्वे व्यूहे सज्जाः तिष्ठन्तु
सेनापतिः अग्रे तिष्ठतु
सत्यम् अनन्तरं
यूयं तस्य रक्षणं कुरुत
सत्यं बहु समीचीनं अत्र अल्पप्राण तकारः आगच्छति कुरुत कुरुत इत्युक्ते मध्यमपुरुष एकनिमिष अत्र मध्यमपुरुष बहुवचनमस्ति कुरुत लोट्लकार क्षम्यतां लट्लकार मध्यमपुरुषः अस्ति बहुवचने कुरुत इति अस्ति चेत् अल्पप्राणः अस्ति चेत् लोट्लकार मध्यमपुरुष बहुवचनं धन्यवादः भगिनि धन्यवादः सुधा भगिनि
आं भगिनि अश्वदलं तत्र
गच्छतु. एते सैनिकाः गजम् आरोहन्ति आरोहन्तु. भवन्तः कुन्तान् गृह्णातु गृह्णन्तु गृह्णन्तु. शत्रून् मर्दयन्तु आक्रमणं कुर्वन्तु. सर्वे दलपतिम् अनुसरन्तु. आज्ञां पालयन्तु च. शत्रुपक्षे अस्त्राणि क्षिपन्तु. सर्वे अरयः पतन्तु. यूयं शत्रून् यमलोकं प्राप्यत.
अत्र महाप्राणः अस्ति,
अल्पप्राणः
भविष्यति.
वयं सायङ्कालात् पूर्वं विजयिनः भवामः. भवाम
लोट्लकारूपम् अस्ति किल.
आम्
भवाम सत्यं सत्यं.
विसर्गः नास्ति अत्र.
नास्ति. आम् आम् न भविष्यति. आम्
पूर्वं विजयिनः भवाम. धर्मरक्षणं कुर्वाम करवाम सारि आम् करवाम
धर्मरक्षणं करवाम कुर्मः इति अस्ति चेत् लट्लकारूपम् उत्तमपुरुष बहुवचनम् अस्ति. कुर्मः भवामः तादृशम् अस्ति. तद् लोट्लकाररूपे कथं भवति चेत् करवाम इति आगच्छति. आम् सत्यं बहु समीचीनं. सर्वे अवगच्छन्ति वा वयं किं कृतवन्तः इति? किं कृतवन्तः वयम्? आवरणे किम् अस्ति? अभ्यासे वयं किं कृतवन्तः?
आवरणे प्रथमपुरुष बहुवचनम् अस्ति. लट्लकारे अस्ति. वयं लोट्लकारे परिवर्तनं
सर्वं लट्लकाररूपाणि दत्तवन्तः. एकवचने क्षम्यतां, प्रथमपुरुषः वा मध्यमपुरुषः वा उत्तमपुरुषः, सर्वे लट्लकाररूपाणि आवरणे दत्तवन्तः. तत्सर्वं लोट्लकाररूपाणि वयं कृतवन्तः. भवितुमर्हति परस्मैपदिनः आत्मनेपदिनः अपि भवितुमर्हति, परन्तु सर्वं लट्लकाररूपाणि दत्तवन्तः. वयं लोट्लकाररूपाणि लिखितवन्तः. तदेव अभ्यासः जातः. अस्तु अस्तु, अग्रे कुर्मः त्रयोदश अभ्यासः. अस्तु माधवी भगिनी.
आं भगिनि. गीतायां कृष्णेन आदर्शरूपेण उक्तानि कानिचित् वाक्यानि अत्र सङ्गृहीतानि सन्ति. एतानि उच्चैः पठत. एतेषु लोट्लकाररूपाणि आधाररेखया अङ्कयत.
भगिनि अत्र भवती पठितवती किल, एतानि उच्चैः पठत. एतेषु लोट्लकाररूपाणि अधोरेखया नाम अण्डर्लैन् अधोरेखया अङ्कयत. अत्र अहं वाक्यद्वयं पठितवती, तत्र लोट्लकाररूपाणि सन्ति वा?
आं भगिनि. यूयं मध्यम पठत अङ्कयत. मध्यमपुरुष बहुवचनरूपाणि लोट्लकार.
आम् अन्य रूपाणि भवती वदतु. पठत अङ्कयत सर्वं यूयं
पठत
यूयम् अङ्कयत. आम् तादृशम् अन्य क्रियापदमपि वदतु भवती. क्रीडति इति वदतु.
क्रीडयत
क्रीडत
क्रीडत.
खादति
खादत.
यूयं खादत.
यूयं खादत. यूयं लिखत.
लिखत. अनन्तरं
यूयं पठत. यूयं
भवति
यूयं
भवत
यूयं भवत
आम् गच्छत सत्यं सत्यम् आगच्छति यूयं
यूयम् आगच्छत
आम् सत्यं तादृशं भविष्यति अस्तु समीचीनम् अत्र एतानि उच्चैः पठत मध्यमपुरुष लोट्लकाररूपम् अस्ति अत्र अनन्तरं यूयम् अङ्कयत अत्र कर्तृपदं किम् इति अत्र न लिखितमस्ति परन्तु वयमेव ज्ञातुं शक्नुमः पठत अङ्कयत इति अस्ति चेत् कर्तृपदं यूयम् एव भवितुम् अर्हति वयम् इति न यूयं सर्वे लिखन्तु इति एव अर्थः अर्थर अत्र अस्तु आम् अग्रे पठतु कृपया
योगस्थः कुरु कर्माणि
अत्र भगवद्गीतायाम् एकमेकं लघु लघु वाक्यं स्वीकृत्य अत्र लिखितमस्ति अत्र कुत्र कुत्र लोट्लकाररूपाणि आगच्छति इति एव अत्र पश्यामः अस्तु योगस्थ कुरु कर्माणि इति श्लोकस्य सङ्ख्या अपि अत्र लिखितमस्ति अत्र कुत्र भविष्यति अत्र लोट्लकाररूपं योगस्थ कुरु कर्माणि
कुरु लोट्लकाररूपम् अस्ति मध्यमपुरुषः एकवचनं
बहु समीचीनम् अनन्तरं द्वितीयं
निमित्तमात्रं भव सव्यसाचिन् त्वं भव लोट्लकाररूप मध्यमपुरुषः एकवचनं
त्वं भव समीचीनम् अत्र आम् अत्र कर्तृपदं किं भवितुम् अर्हति
त्वम्
आम् बहु समीचीनं कुरु इति स्थाने कर्तृपदं किं भवितुमर्हति सत्यम् अनन्तरं
निस्त्रैगुण्यो भवार्जुन
अत्र कुत्र अस्ति भव अर्जुन
लोट्लकाररूप मध्यमपुरुषः एकवचनं त्वं भव बीजं मां सर्वभूतानां विद्धि विद्धि लोट्लकाररूपं मध्यमपुरुष एकवचनं त्वं विद्धि
आम् त्वं विद्धि अत्र अपि वयं पठितवन्तः स्मरन्ति वा सर्वे यदा वयं दशम अभ्यासः वयं कृतवन्तः तत्र विद्धिः इति एकं पदम् आगच्छति पञ्चमं
मां विद्धि
जानीहि विद्धि निबोध जहि इति अस्ति पञ्चमं दशम अभ्यासे पञ्चमवाक्यं पश्यन्तु सर्वे जानीहि विद्धि निबोध जहि इति अस्ति वा पदानि
आं भगिनि
अत्र द्वितीयम् अस्ति विद्धि इति किल अत्र टु अण्डर्स्टाण्ड् टु नो इति एव अर्थः अत्र तदेव अत्र अत्रापि आगतमस्ति बीजं मां सर्वभूतानां विद्धि मध्यमपुरुष एकवचनं
अग्रे पठानि वा भगिनि
इतोपि एकं पठतु
यथेच्छासि तथा कुरु
यथे इच्छसि यथा इच्छसि तथा कुरु
तथा कुरु कुरु मध्यमपुरुषः लोट्लकार एकवचनं त्वं कुरु
आम् समीचीनं धन्यवादः भगिनि
धन्यवादः भगिनि
अग्रे राधिका भगिनि
आं भगिनि मध्याजि मां नमस्कुरु
अत्र कुत्र अस्ति
कुरु कुरु
कुरु कर्तृपदं किं
लोट् कुरु कुरुते
न न कर्तृपदं किं भवितुम् अर्हति अत्र कुरु इति अस्ति चेत् माधवी भगिनी इदानीम् उक्तवती
कुरु मध्यमपुरुष एकवचनं
सत्यं बहु समीचीनं कर्तृपदं मध्यमपुरुषः इति अस्ति चेत् कर्तृपदं किं भवितुम् अर्हति
ओ त्वं
सत्यं
त्वं त्वं
त्वं कुरु.
सारी मेडम्,
चिन्ता मास्तु, चिन्ता मास्तु, चिन्ता मास्तु. त्वं कुरु, समीचीनम्. अनन्तरं सप्तमं,
बुद्धौ शरणम् अन्विष्य, अन्विष्य,
अन्विष्य,
अन्विष्य मध्यमपुरुष एकवचनं लोट्लकारम्.
अतः कः कथं भवति कर्तृपदम्?
त्वं मल्लि, त्वं
पुनः वदतु, दोषः न भवति किल. त्वं त्वम् अन्विच्छ, त्वम् अन्विच्छ इति, त्वं कुरु, त्वं भव इति तादृशं वदति चेत्, पुनः पुनः वदामः चेत् अस्माकं मनसि स्पष्टं भविष्यति. अस्तु, भवत्याः कृते अपि लाभाय भवति, अन्येषां कृते अपि लाभाय भविष्यति. अस्तु, अग्रे.
तस्मात् उत्तिष्ठ कौन्तेय, उत्तिष्ठ उत्तिष्ठ लोट्लकार मध्यमपुरुष एकवचनं, त्वम् उत्तिष्ठ.
सत्यम्. अनन्तरं
शृणु मे परमं, परमं वाचः,
वचः
वचः वा कांसि वच, शृणु मध्यमपुरुष एकवचनं, त्वं शृणु, त्वं शृणु.
केवलं कर्तृपदमेव वदतु, कर्तृपदं सम्यक् वदति चेत् भवती सर्वम् अवगच्छति इति अस्माकं मनसि स्पष्टं भविष्यति. अस्तु, त्वं शृणु इति वदतु, अथवा सः शृणोति, त्वं शृणु इति तादृशं वदति चेत् पुरुषः कः इति अस्माकं मनसि स्पष्टीकरं भविष्यति. अस्तु, अत्र त्वं शृणु. अनन्तरं दशमं,
त्वं शृणु दशमं, तमेव शरणं गच्छ, त्वं गच्छ मध्यमपुरुष.
तावदेव, मध्यमपुरुष इति वदति चेत् मध्यमपुरुषः एव भवितुम् अर्हति, किमपि न भवति. अस्तु, बहु समीचीनम्.
आम् आम्,
धन्यवादः भगिनि, धन्यवादः. धन्यवादः. वीणाबेन भगिनि.
आं भगिनि, नियतं कुरु कर्म त्वं कुरु, त्वं कुरु
कर्तृपदम्. सत्यं सत्यं, त्वं कुरु. अनन्तरं
मुक्तसङ्गः समाचर, समाचर, त्वं समाचार, समाचार, समाचार के समाचर,
चर, चर एव अत्र
समाचार,
अत्र क्रियापदं लोट्लकारूपं चर एव, त्वं चर, आचर, आचर,
सम आचर. बुद्धियोगमुपाश्रित्य मच्चिदः सततं भव, भव, त्वं भव. साधि मां त्वां प्रपन्नं, साधि, साधि अर्थस्य किं भगिनि?
अर्थः नाम इन्स्ट्रक्ट्. उर्मिला भगिनी, भवती हिन्दीभाषायां साहाय्यं करोतु. इन्स्ट्रक्ट् इति अस्ति किल,
भगिनी?
ओके, धन्यवादः. तस्मात् त्वम् उत्तिष्ठ.
भगिनी, भवती वदतु, शादी इति अस्ति किल, शादी, कर्तृपदं किं?
त्वं,
त्वं शादी,
त्वं, त्वं शादी. तस्मात् त्वम् उत्तिष्ठ यशो लभस्व, उत्तिष्ठ, त्वम् उत्तिष्ठ.
अनन्तरम् इतोपि अस्ति,
लपस्व.
अस्ति वा?
आम्,
त्वं, त्वम् उत्तिष्ठ
अपि लपस्व.
एकनिमिषः, अत्र पश्यामः पेज् नम्बर् 50 मध्ये पश्यन्तु सर्वे, पञ्चाशत्तमपुटे, पेज् नम्बर् 50, अत्र शीर्षकं किम्? उत्तिष्ठ यशो लभस्व इति अस्ति. भवती किं पठितवती इदानीम्?
उत्तिष्ठ यशः लभस्व,
यशो लभस्व, तदेव अत्रापि शीर्षकम्, अस्माकं पाठस्य शीर्षकम् अस्ति उत्तिष्ठ यशो लभस्व. उत्तिष्ठ, त्वम् उत्तिष्ठ यशो त्वं लभस्व, तदेव अत्रापि लिखितमस्ति. अस्तु, कस्मिन् श्लोके तद् लिखितमस्ति? एकादश किं वदामः, एकादश अध्याये अस्ति. उत्तिष्ठ यशो लभस्व, त्वम् उत्तिष्ठ यशो त्वं लभस्व इति एव अत्र शीर्षकमस्ति. अस्तु, उत्तिष्ठ. धन्यवादः भगिनि.
धन्यवादः.
अनन्तरम् ऊर्मिला भगिनी.
अस्तु, तस्मात् युध्यस्व भारत. युध्यस्व क्रियापदमस्ति, मध्यमपुरुषे एकवचनं.
कर्तृपदं किं?
भारत.
कर्तृपदं
त्वं, त्वं युध्यस्व.
तावदेव.
अनन्तरं यत् तपस्यसि तत् कुरुष्व मदर्पणं. कुरुष्व मध्यमपुरुष एकवचनं, त्वं कुरुष्व.
सत्यं, त्वं कुरुष्व. समीचीनम्. अनन्तरं भगिनी, तपस्यसि अपि एकं क्रियापदम् अस्ति किल अत्र?
आम् आम्, तपस्यसि, त्वं तपस्यसि, परस्मैपदी मध्यमपुरुषे एकवचनं.
सत्यं सत्यम्. एकनिमिषम्. अस्तु, अग्रे.
लोकमिमं प्राप्य भजस्व मां. भजस्व मध्यमपुरुषे एकवचनं, त्वं भजस्व.
सत्यं सत्यं.
जित्वा शत्रून् भुङ्क्ष्व राज्यं. भुङ्क्ष्व प्रथम मध्यमपुरुषे एकवचनं, त्वं भुङ्क्ष्व.
सत्यं सत्यं. धन्यवादः भगिनि. धन्यवादः. अग्रे सुधा मधु भगिनि.
आं भगिनि. मयि एव मन आदत्स्व, त्वम् आदत्स्व.
सत्यम्. अनन्तरं
मन्मना भाव, मन्मना भव, त्वं भव, त्वं भव. मयि बुद्धिं निवेशय, त्वं निवेशय.
सत्यं सत्यं, तावदेव. अस्तु, किञ्चित् स्पष्टं भविष्यति इति मम चिन्तनं. अहं किं वदामि इत्युक्ते, एतावत्पर्यन्तं लकाराः विषये वयं किं किं कति लकाराः वयं पठितवन्तः? लट्लकाररूपाः वयं पठितवन्तः, लोट्लकाररूपाणि वयं पठितवन्तः. अस्तु, लट्लकाररूपाणि, लोट्लकाररूपाणि, केवलं द्वयमेव वयं पठितवन्तः. अस्तु, परन्तु तस्मिन् विषये एव परस्मैपदिनः आत्मनेपदिनः अपि द्वयमस्ति. अस्तु, अतः तेषु रूपाणि, नवरूपाणि कथं भवति इति सम्यक् कण्ठस्थीकृतवन्तः चेत् गच्छताकालेन सुलभः भविष्यति. किमर्थम् इत्युक्ते, गच्छताकालेन नूतनविषयाः आगच्छन्ति. भूतकालविषये वयं पठामः, उपसर्गाः आगच्छन्ति, अनेकविषयाः वयम् आगच्छति चेत् विस्मरामः वयम्. अस्तु, अतः गृहपाठरूपेण लट्लकाररूपाणि, लोट्लकाररूपाणि, परस्मैपदिनः आत्मनेपदिनः सर्वं सर्वदा अभ्यासं कृत्वा आगच्छन्तु, कुर्वन्तु सर्वदा. अहमपि करणीयं, भवन्तः सर्वे अपि करणीयम्. अनन्तरमेव सुलभः भविष्यति. अस्तु, प्रश्नः अस्ति.
पृगङ्क्ष्व आत्मने लौट् भगिनि.
आं सत्यम्. आम्,
धन्यवादः भगिनि.
कन्स्यूम् इति अर्थः भविष्यति.
अर्थः किं भगिनि?
कन्स्यूम् इति अर्थः.
कन्स्यूम् धन्यवादः
धन्यवादः अनन्तरं सुधा भगिनी
आं भगिनि
अग्रे पठति वा किम् अस्ति इति महात्मानः
अस्तु भगिनि महात्मानः गीताविषये एवं वदन्ति गीता तत्त्वोपदेशग्रन्थमात्रं न इति इदं महत्त्वपूर्णं धर्मिकविषयकं किञ्चन काव्यं यः अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कलः अर्थः तेन प्राप्यते इदं महान्तं जनसमूहम् उद्दिश्य एव रचितम् अत्र रुचिरा पुनरुक्तिः दृश्यते इति महात्मा गान्धेः उक्तम्
बहु समीचीनं सर्वे अवगच्छन्ति वा किम् अस्ति अत्र इति भवती भगिनी भवती सावधानेन एकैकवाक्यशः पठित्वा विवरणं करोति वा
आम् अत्र महात्मानः गीताविषये एवं वदन्ति इति उक्तं महात्मानः इत्युक्ते ग्रेट् मेन् इति गीताविषये एवं वदन्ति गीता तत्त्व उपदेशग्रन्थमात्रं न तत्र तत्त्वमेव बोधितं नास्ति गीतायाम् इदं महत्त्वपूर्णधर्मविषयकं किञ्चन काव्यं तत् तत्त्व उपदेशं मात्रं न तत् महत्त्वपूर्णम् अस्ति धर्मविषयकम् अपि बोधयति इति
अतः किं न जानीमः वयं तत्त्वमपि अस्ति धर्मः अपि अस्ति अत्र अनन्तरं
यः अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कलः अर्थः तेन प्राप्यते वयं यथा यथा अधिकं तत्र गाहते इत्युक्ते डीप्लि डैव् इन् टु इति अर्थः
पठामः अधिकं पठामः इति चिन्तयामः सरलरूपेण
न्यास्यामः चेत् तथा तथा पुष्कलः अर्थः पुष्कलः इत्युक्ते स्प्लेण्डर् अधिकम् अर्थः
नूतनविषयः वयं प्राप्स्यामः
आम् इति पुरा अपि नवम् इति वदन्ति पुराणम् अस्ति परन्तु यथा यथा वयं पठामः तथा तथा नूतन अर्थाः प्राप्नुमः
सत्यं सत्यम् आम् आम् आम्
इदं महान्तं जनसमूहम् उद्दिश्य एव रचितम् एतत् अस्माकं जनसमूहकृते एव रचितम् अर्जुनः निमित्तमात्रमेव परन्तु अस्माकं जनसमूहम् उद्दिश्य एव तद् रचितमस्ति
कस्मात् कृते एतद् काव्यं रचितमस्ति
अस्माकं
कृते कस्य क्षम्यतां कस्य कृते एतद् रचितमस्ति
अस्माकं कृते
जनसमूहं कृते एतद् विषयं रचितमस्ति
अत्र रुचिरा पुनरुक्तिः दृश्यते इत्युक्ते रुचिकर
नूतनविषयं अधिकमधिकं वयं ज्ञातुं शक्नुमः सरलरूपेण तावदेव तदेव तात्पर्यमस्ति महात्मागान्धिः उक्तमस्ति एतद् विषयं भगवद्गीताविषये एतद् लिखितमस्ति अत्र पश्यामः चेत् इदानीम् अयम् अस्माकं मनसि स्पष्टं भविष्यति किल यदा गीता वयं पठामः चेत् तत्र सर्वत्र रूपाणि दृष्ट्वा वयं ज्ञातुम् अवगन्तुं शक्नुमः इति कुरु भव गच्छ अवगच्छ शृणु इति सर्वम् अत्र आगच्छति तत्सर्वं लोट्लकारूपाणि इति वयं ज्ञातुं शक्नुमः किल यदा वयं गीता पठामः अथवा शृणुमः किञ्चित् सुलभः एव भविष्यति अहम् अवगच्छामि एतत् पदम् अहम् अवगच्छामि इति किञ्चित् मनसि उत्साहः भविष्यति एव अस्तु तावदेव लोट्लकारूपाणि वयं पठितवन्तः अग्रिमसप्ताहे वयं सङ्ख्यानां विषये आरम्भं कुर्मः अस्तु अस्तु एतत् पाठस्य विषये प्रश्नाः सन्ति वा अत्रैव स्थगयामः वा अद्य
आं भगिनि
प्रश्नः अस्ति वा
ना
अस्माकं कार्यं
भगिनि मम स्क्रीन् नै पश्यामि भगिनि
अहं न शेर् करोमि भगिनि, अहं न शेर् करोमि अद्य.
ओ ओ समीचीनं.
अहं
डिवैस् चेञ्ज् कर् समीचीनं भगिनि.
मम पार्श्वे ऐपेड् नास्ति, अतः न स्क्रीन्शाट् कृतवती. अस्तु.
Okay. I was worried about the next class. This class, it was only in the book. So I was changing the devices still. I was logging in and logging out, changing. But still I couldn't get...
No, Bhagini.
I just want to check. So that next class, I will... Suppose you write something that I will be... I should be able to see, na? That's right. Dhanyavada, Bhagini.
Dhanyavada. Asmakam karyam, graha karyam, kim bhavishyati? Kopi vadati va? अस्माकं गृहकार्यं किं भविष्यति भगिनि? वदतु राधिका भगिनि, वदतु.
लोट् लकार रूपाणि सम्यक् ज्ञातव्यम्.
अस्तु. एतावत्पर्यन्तम् इत्युक्ते षट्पञ्चाशत् पुटसङ्ख्या, षट्पञ्चाशत् तमपुटपर्यन्तं वयं किं पठितवन्तः इत्युक्ते सप्तपञ्चाशत् तमीपुटे पर्यन्तं वयं किं पठितवन्तः इत्युक्ते केवलं लकारः द्वयम् एव वयं पठितवन्तः. कति लकाराः वयं पठितवन्तः? कति लकाराः वयं पठितवन्तः? कति इति मम प्रश्नः अस्ति चेत् केवलं सङ्ख्या एव भवितुम् अर्हति उत्तरं.
द्वे.
आम्,
द्वे.
आम्, केवलं लकारः द्वयम् एव वयं पठितवन्तः. ते के?
लट् लकार, लोट् लकार.
तावदेव वयं पठितवन्तः. तेषु परस्मैपदिनः आत्मनेपदिनः अस्ति, अतः सर्वे लट् लकाररूपम् इति स्वीकृत्य परस्मैपदिनः नवरूपाणि किम्, आत्मनेपदिनः नवरूपाणि किम्, अनन्तरं लोट्लकारूपम् इति स्वीकुर्मः चेत् परस्मैपदिनः आत्मनेपदिनः नवरूपाणि के कति कथं भवति इति सर्वे अभ्यासं सर्वदा कुर्वन्तु. अस्तु. अस्तु.
अस्तु.
तदेव अस्माकं गच्छता कालेन तदेव सुलभः भविष्यति.
भगिनी, शाल् ऐ कन्फर्म् वाट् ऐ अण्डर्स्टुड् भगिनी, वाट् यु टोल्ड् जस्ट् नाउ? We have to be confident about Atmane Padi Laut, Atmane Padi Lat, Parasmai Padi Laut Lakaraha, Parasmai Padi Lat Lakaraha.
Tavadeva, Tavadeva.
Dhanyavada Pati.
Salarupam. Yada vayam salarupam eva svikrutya, taddeva abhyasam krutva agachantu. Nutana padam agachati ket patama, patishyamaha, anantaram patishyamaha. Paranta salarupani patati, kridati. सरलरूपं भुवादिगणे के दातवः सन्ति तत्सर्वं सुलभः भविष्यति. अस्तु. तत्सर्वम् अभ्यासं कुर्मः, सर्वदा अभ्यासं कुर्मः वयम्. अस्तु. तदेव अस्माकं लक्ष्यमस्ति. अस्तु. अत्र एव स्थगयामः, अग्रिमसप्ताहे मिलामः. अस्तु.
भगिनी, भगिनी, विभक्ति मे विभक्ति मे किं किं शब्द अहं
पठनीयं वा? ईमेल् माध्यमेन अहं प्रेषयिष्यामि. पूर्वमेव वयं पठितवन्तः, तत् अस्माकं जालपुटे अस्ति, कुत्र अस्ति इति अहं प्रेषयिष्यामि. अस्तु.
प्रेषयिष्यामि.
ऐ विल् सेण्ड् यू where we have the vibhaktis in our website, or the common vibhakti that we studied, and you can practice that.
Okay, I'll check it up in the website then, Bhagini.
Sure. Namaskara. Punarmila.
Namaskara, Bhagini.
Dhanyavada.